आकाशवाणी संप्रति वार्ताः श्रूयन्ताम् प्रवाचिका कामना झाः। आदौ मुख्य वार्ताः। भारतेन श्वः भविष्यमाणाय लोकसभा निर्वाचनस्य द्वितीय चरणाय सर्वाः सज्जताः सम्पूरिताः। एतस्मिन् द्वितीय चरणे 88 लोकसभा आसनेभ्यः 13 राज्येषु केन्द्रशासित प्रदेशेषु अपि मतदानं भविष्यति। लोकसभा निर्वाचनस्य चतुर्थ चरणाय नामांकन पूरण प्रक्रिया समाप्ता जाता। निर्वाचन आयोगेन भाजपा कांग्रेस दलयोः कृते आदर्श आचार संहितायाः उल्लंघनम् अभिलक्ष्य एका अधिसूचना प्रख्यापिता। अस्य मासस्य 29 दिनांकं यावत् पूर्वाह्ने 11 यावत् प्रत्युत्तरम् अपि अभियाचितम्। अमेरिका देशीयः राष्ट्रपतिः जो बाइडेन टिकटॉक इत्यस्य अनुप्रयोगस्य प्रतिबन्धकरणे एकस्मिन् विधेयके हस्ताक्षरं कृतवान्। आगामि पञ्चदिवसेषु पूर्वीय दक्षिणीय प्रायद्वीपीय भारते ग्रीष्मलहर्याः सम्भावना प्रकटिता भारत ऋतु विज्ञान विभागेन। अपि च आईपीएल क्रिकेट प्रतिस्पर्धायाम् अद्य सायं सनराइजर हैदराबाद दलस्य प्रतिस्पर्धा रॉयल चैलेंजर्स बेंगलुरु दलेन सह भविष्यति। अथ वार्ताः विस्तरेण। श्वः भविष्यमाणाय लोकसभा निर्वाचनस्य द्वितीय चरणाय सर्वाः सज्जताः सम्पूरिताः। एतस्मिन् प्रचाराभियानं ह्यः सम्पन्नं जातम्। एतस्मिन् द्वितीय चरणे 88 लोकसभा आसनेभ्यः 13 राज्येषु केन्द्रशासित प्रदेशेषु अपि मतदानं भविष्यति। अपि च बाह्य मणिपुर लोकसभा क्षेत्राय अपि अस्मिन्नेव चरणे मतदानं भविष्यति। केरलस्य 20 आसनानि, कर्णाटकस्य 14 आसनानि, राजस्थानस्य 13 आसनानि, उत्तर प्रदेश महाराष्ट्रयोः 8 आसनानि, मध्य प्रदेशस्य 6 आसनानि, असमस्य 5 आसनानि, बिहारस्य अपि 5 आसनानि, पश्चिम बंगालस्य 3 आसनानि, छत्तीसगढ़स्य अपि 3 आसनानि, त्रिपुरा जम्मू कश्मीरयोः एकम आसनं समेत्य द्वितीय चरणे मतदानानि भविष्यन्ति। अवधेयं वर्तते यत् मध्य प्रदेशस्य बैतूल संसदीय आसने बसपा प्रत्याशिनः निधन कारणात् द्वितीय चरणे भविष्यमाणं निर्वाचनं सम्प्रतं तृतीय चरणे भविष्यति। लोकसभा निर्वाचनस्य चतुर्थ चरणाय नामांकन पूरण प्रक्रिया अद्य समाप्ता जाता। नामांकन पत्राणाम् अनुसंधेय कार्यं श्वः भविष्यति। प्रत्याशिनः अप्रैल मासस्य 29 दिनांकं पर्यन्तं स्वस्य नामांकन प्रत्यावर्तनं कर्तुं शक्नुवन्ति। अस्मिन् चरणे मई मासस्य 13 दिनांके 9 राज्येषु 1 केन्द्रशासित प्रदेशे च 96 आसनेभ्यः मतदानं भविष्यति। अस्मिन् चरणे उत्तर प्रदेश, मध्य प्रदेश, महाराष्ट्र, बिहार, झारखंड, ओडिशा, पश्चिम बंगाल, आंध्र प्रदेश, तेलंगाना, जम्मू कश्मीर राज्येषु मतदानं भविष्यति। भारतीय निर्वाचन आयोगेन भाजपा कांग्रेस दलयोः शीर्ष प्रचारकैः कथित आदर्श आचार संहितायाः उल्लंघनम् अभिज्ञातम्। निर्वाचन आयोगेन भाजपा दलाध्यक्षः जगत प्रकाश नड्डा इत्यस्मै, कांग्रेस दलाध्यक्षः मल्लिकार्जुन खड़गे इत्यस्मै च पत्रं विलिख्य अस्य मासस्य 29 दिनांकं यावत् पूर्वाह्ने 11 यावत् प्रत्युत्तरम् अभ्यर्थितम्। एतस्मिन् पत्रे आयोगेन निर्दिष्टं यत् सर्वे हि मुख्य प्रचारकाः राजनीतिक संवादस्य उच्चमानं स्थापयन्तु, अपि च आदर्श आचार संहितायाः प्रावधानानि अपि अनुपालयन्तु। कांग्रेस सीपीआई सीपीआईएम दले ही स्वकीय परिवेदनासु श्रीमोदिनः राजस्थानस्य बांसवाड़ा क्षेत्रे प्रदत्ते नैर्वाचनिक अभिभाषणे आपत्तिः अभिव्यक्ता। तत्रैव भाजपेति दलेन स्वकीय परिवेदनायां कांग्रेस नेतु राहुल गांधिनः केरलस्य कोटायाम स्थले संभाषिते भाषणे आपत्तिः प्रकटिता। संस्कृत वार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशो अपि उपलब्धो भविष्यति। भारत ऋतु विज्ञान विभागेन ग्रीष्मलहर्याः पूर्वानुमानः कृताः। आगामी पञ्चदिवसेषु पूर्वीये दक्षिणे प्रायद्वीपीये भारते ग्रीष्मलहर्याः सम्भावना वर्तते। बिहार झारखण्ड आन्ध्रप्रदेश तेलंगाना पूर्वोत्तर प्रदेशेषु ग्रीष्मलहर्याः सम्भावना वर्तते। भारतीय ऋतु विभागेन इदमपि प्रोक्तं यत् मध्य पूर्वीय भारते अधिकतमं तापमानं द्वितः त्रीणि डिग्री मितं यावत् वर्धिष्यते। आकाशवाण्याः सह वार्तालापं कुर्वन् भारतीय ऋतु विज्ञानस्य वैज्ञानिकः आर.के. जैन मणिः अवदत् यत् तटीय ओडिशा गंगीय पश्चिम बंगाल बिहार राज्येषु ग्रीष्मलहर्याः स्थितिम् एवमेव भवितुं शक्नोति। अमेरिका देशीयाः राष्ट्रपतिः जो बाइडनः टिकटॉक इत्यस्य अनुप्रयोगस्य प्रतिबन्धकरणे एकस्मिन् विधेयके हस्ताक्षरं कृतवान्। चीन देशस्य उद्यमाय बाइट डांस इत्यस्मिन् टिकटॉक अनुप्रयोगः अमेरिका देशे प्रतिबन्धनाय उत वा अमेरिकीय उद्यमाय विक्रणाय च नवमासानां कालः प्रदत्तः। एतादृशी अभिशंका आसीत् यत् टिकटॉक इति अनुप्रयोगः चीन देशेभ्यः अधिकारिभ्यः दत्तांशं प्रेषितुं शक्नोति। अमेरिकीय सीनेटाख्येन ह्यः एतस्मै ऐतिहासिक विधेयकाय अनुमतिः प्रदत्ता। टिकटॉक इति अनुप्रयोगेन एषः विधिः असंवैधानिकः उद्घोषितः। उक्तं च यत् न्यायालये तत्सम्बद्धस्य प्रकरणस्य वादश्रवणं भविष्यति। राष्ट्रपतिः द्रौपदी मुर्मुः उपराष्ट्रपतिः जगदीप धनखड़ः च उत्तर प्रदेशस्य हाथरस लोकसभा क्षेत्रात् भाजपा दलस्य सांसदस्य च राजवीर सिंह दिलेरस्य दिव्यंगते सति शोकम् अभिव्यक्तवन्तौ। राष्ट्रपतिः स्वकीये शोक संदेशे अवदत् यत् उत्तर प्रदेश जनानां विकासाय निरन्तरं सहकार्यं कृतम् आसीत्। उपराष्ट्रपतिः श्री धनखड़ः प्रोक्तवान् यत् दिलेरः लोकतांत्रिक मूल्यानि प्रति प्रतिबद्धम् अपि च जनकल्याणाय निस्वार्थरूपेण कार्यं कृतम्। प्रधानमंत्री नरेन्द्र मोदी अपि तस्य निधने गंभीरां संवेदनां प्रकटितवान्। अवधेयं वर्तते यत् श्री राजवीर सिंह दिलेरस्य ह्यः हृदयाघातेन मृत्युः जाता। एषः 65 वर्षीयः आसीत्। राष्ट्रीय सुरक्षा परामर्शदः अजीत डोभलः संबलं प्रत्यापादयत् यत् भारतदेशः आतंकीय अनुदानस्य विरोधार्थं आतंकवादी अपराधिभिः सूचना संचारः प्रौद्योगिक्योः दुरुपयोगं रोधुं संयोगः प्रचलति एव। श्री डोभालः रूसस्य सेंट पीटर्सबर्ग नगरे सुरक्षा विषयक प्रकरणेभ्यः नियोजितस्य उच्चस्तरीय अधिकारिणां द्वादश अन्तर्राष्ट्रीय उपवेशने वक्तम् इदं कथितवान्। आईपीएल इत्यस्यां क्रिकेट प्रतिस्पर्धायां ह्यः रात्रौ जातायां स्पर्धायां दिल्ल्याः अरुण जेटली क्रीडांगणे दिल्ली कैप्टन दलेन गुजरात टाइटन्स दलं चतुर्भिः धावनांकैः पराजितम्। अद्य हैदराबाद नगरे राजीव गांधी अन्तर्राष्ट्रिय क्रीडांगणे सनराइजर्स हैदराबाद दलस्य प्रतिस्पर्धा रॉयल चैलेंजर्स बेंगलुरु दलेन सह भविष्यति। अन्ते च मुख्य वार्ताः पुनरेकवारम्। भारतीय श्वः भविष्यमाणाय लोकसभा निर्वाचनाय द्वितीय चरणाय सर्वाः सज्जताः सम्पूरिताः। एतस्मिन् द्वितीय चरणे 88 लोकसभासनेभ्यः 13 राज्येषु केन्द्रशासित प्रदेशेषु अपि मतदानं भविष्यति। लोकसभा निर्वाचनस्य चतुर्थचरणाय नामांकन पूरण प्रक्रिया समाप्ता जाता। निर्वाचन आयोगेन भाजपा कांग्रेस दलयोः कृते आदर्श आचार संहितायाः उल्लंघनम् अभिलक्ष्य एका अधिसूचना प्रख्यापिता। अस्य मासस्य 29 दिनांकं यावत् पूर्वाह्ने 11 वादनं यावत् प्रत्युत्तरम् अभियाचितम् इति वार्ताः।